धेनः प्रत्नस्य काम्यन्दुः आनान्तः पुत्रश्चरति दक्षिणायाः आद्या तनिम् वहति शुभ्रजा मोषसस्तोमो अश्विना वजीगः स जग्महन्ति प्रतिवाव्रते नोर्ध्वा भवन्ति पितरे एव मेधाः जरेधामस्मद्विपणेर्मनीषाञ्जुपोरवश्च क्रमायातमर्वाक् सुजग्भिरश्वैः स्वव्रतारथे न दस्रा विमम् शृणुतम् श्लोकमद्रेः किमङ्गवाम् प्रत्यवर्त्यङ्गमिष्ठाहुर्विप्रासो अश्विना पुराजाः आमन्येथामागतम् कच्चिदेवैर्विश्वे जनासो अश्विना आहवन्ते इमा हि वाङ्गोरजे कामधो निप्रमित्रासो न ददुरुस्रो अग्रे तिरः पुरोचिदश्विना रजाम् स्याङ्गोषो वा मघवानाजनेष एहया तम् पथिभिर्ते भजानैर्दस्रा विमेवान्निधयो मधो नाम् पुराणमोकः सख्यम् शिवम् वा अञ्जुवोर्नरा द्रविणम् जह्नाव्या पुनः कृण्वानाः सख्या शिवा निबद्ध्वा मदेम सह नो समानाः अश्विना वाजुना आजुवम् सुदक्षा निजुद्भिश्च सजोषसाजुवाना नासत्यातिरो अह्यञ्जुषाणा सोमम् पिबदमस्रिधा सुदानो अश्विना परिभाविशः पुरोचेरेजुर्गेर्भिरयतमाना अमृध्राः रथो हवावृतजा अद्रजोतः परित्यावा पृथिवीजाति सद्यः अश्विना मधुषुत्तमाजुवाकुः सोमस्तम्बा तमागतम् दुरोणे रथो हवाम्भोरिवर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः